एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः राष्ट्रपतिः रामचन्द्र पौडेलः संघीयतायाः सुशासनस्य पारदर्शितायाश्च विदेशच शासनम् सुदृढम् विधातुम् सर्वकारम् दायित्ववाहितया जनताम् प्रति उत्तरदायिनम् विधातुम् च संसदः भूमिकाम् इतोऽपि प्रभावपूर्णाम् कर्तुम् बलम् ददाति आन्तर व्यवस्थापिका मञ्च नेपालस्य पोखरा घोषणापत्र हस्तान्तरण कार्यक्रमे पूर्वेद्युः राष्ट्रपति पौडेलः संसदि जनतायाः समस्यासु विमर्शनम् न भवति असन्तुष्टिः श्रूयते अथ संसदम् जनतायाः समस्या श्रवणस्थलत्वेन विकसयितुम् आवश्यकता स्थिति अवोचत राष्ट्रपतिः पौडेलः परम्परागत शैल्यप्यक्षया संसदम् सामयिकम् काठिन्यम् प्रतिकर्तुम् क्षमाम् विदाय नीतिगताय सुधाराय समन्वयाय नवीनाय समाधानाय च संसदीय सहकारेण समस्याः समाधातुम् शक्यन्ते इति अवोचत प्रधानमन्त्री केपी शर्मा ओली संघीय लोकतान्त्रिक गणतन्त्रम् सुदृढम् विदाय सर्वकारेण सुशासनस्य समृद्धेश्च दिशि तीव्ररूपेण कार्यम् कृत्वा देशः अग्रे नीयमानोस्तीति निश्चिनोति कोशी प्रदेश सभाम् ह्यः सम्बोधयन् प्रधानमन्त्री ओली जनतायाः बलिदानेन संघर्षस्य बलेन च प्राप्तस्य संविधानस्य रक्षाम् कृत्वा आवश्यकतायाः अनुसारेण जनतायाः संघीय लोकतान्त्रिक गणतन्त्रस्य च पक्षे संशोधनम् च करिष्यते इति प्रावोचत प्रधानमन्त्री ओली देशस्य समृद्धये राष्ट्रियैकतायै चैव आत्मना सम्प्रत्यपि नैरन्तर्येण कार्यम् विद्यमानमस्ति विधास्यते चेति उदैरयत प्रधानमन्त्री ओली कोशी प्रदेश आर्थिक सामाजिक सांस्कृतिक कृषि पर्यटनानाम् सम्भावनाया प्रदेशोस्तीति त्यतः एतेषाम् सदुपयोगम् कर्तुम् प्रदेश सर्वकारम् अन्वरुणात ह्य एव पूर्वाञ्चल विश्वविद्यालयस्य त्रयोदशम् दीक्षान्त समारोहम् सम्बोधयन् प्रधानमन्त्री ओली विदेश पलायनस्य अपेक्षया देश निर्माणस्य कार्ये प्रयतितुम् युव विद्यार्थिनः अन्वरुणात दीक्षान्त समारोहे विभिन्न संकायानाम् अष्टौ सहस्राणि पञ्चाशदधिक शतम् च विद्यार्थिनः दीक्षिताः वर्तन्ते मुङलिङ मलेखु मार्गस्य स्तरोन्नतेः 25% कार्यम् सम्पन्नमस्ति नागढुङ्गा मुङलिङ मार्गयोजनाम् त्रिषु भागेषु विभज्य स्तरोन्नतेः कार्यम् विद्यमानम् वर्तते प्रथमचरणे नागढुङ्गा नौविशे खण्डस्य द्वितीय चरणे नौविशे मलेखु खण्डस्य तृतीय चरणे मलेखु मुङलिङ खण्डस्य च समावेशम् विधाय कार्यम् विद्यमानम् वर्तते आसन्न 95 किलोमीटर परिमितस्य मार्गस्य आषाढ मासान्तम् यावत् 16 किलोमीटर परिमित मार्गस्य वज्रीकरणस्य कार्यम् सम्पादनस्य लक्ष्यम् वर्तते इति आयोजनायाः प्रमुख केदार प्रसाद नेपालः असूचयत संविधायाः अनुसारेण 282,000 विक्रमवर्षस्य पौषमासस्य 15 दिवसम् यावत् नागढुङ्गा मुङलिङ मार्गखण्डस्य स्तरोन्नतेः कार्यम् पूरणीयम् भविष्यति प्रतिनिधिसभाया ह्यस्तनोपवेशन मोन्ट्रियल प्रोटोकल गिगाली संशोधनम् पारितीकृतम् अस्ति वन वातावरण मन्त्रिणा ऐन बहादुर शाही इत्यनेन प्रस्तुत प्रस्तावोऽयम् सर्वसम्मत्या पारितीकृतो वर्तते उपवेशे संचार सूचना प्रविधि मन्त्रिणा पृथ्वी सुब्बा गुरूङ इत्यनेन एतद् विक्रमवर्षीयम् संचार परिषद विधेयकम् प्रकरणगताय विमर्शनाय सम्बद्ध समितौ प्रेष्यतामिति निगद्य प्रस्तुत प्रस्ताव सर्वसम्मत्या स्वीकृतोऽस्ति प्रतिनिधिसभायाः उपवेशे विधि न्याय संसदीय विषय मन्त्री अजय कुमार चौरसिया उपभोक्तृ न्यायालयस्य संगठन सम्बद्धाम् सूचनाम् प्रस्तुतवान् तत्पूर्वम् नेपाली कांग्रेस दलस्य सांसद गगन कुमार थापा नेकपा एमाले दलस्य सांसद गोकर्ण विष्टश्च प्रतिगमनस्य षड्यन्त्रस्य च विरूद्धे सर्वैः दलैः सह सहकार्याय प्रतिबद्धताम् व्यक्तवन्तौ एवमेव उपवेशे सांसदाः विद्यमानस्य संघीय लोकतान्त्रिक गणतन्त्रात्मक शासन व्यवस्थायाः विरूद्धे मुखरितानाम् स्वराणाम् विषये विगतकालिकाः सर्वकाराः वर्तमान सर्वकारश्च उत्तरदायिनो वर्तन्ते इति आरोपयन् उपवेशे सांसदाः जनतायाः असन्तोषस्य विषये समये एव ध्यानं दातव्यम्। माध्यमिक शिक्षा परीक्षायाः समये शिक्षकाणाम् आन्दोलनस्य विषयः शीघ्रं वार्तायाः माध्यमेन समाधेयः। कृषकाणां समस्याः समये एव समाधेयाश्चेति बलम् अदुः। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः लोकतन्त्रे एव स्वस्थानं निर्मातुं राजतन्त्रवादिनः अनुरुणद्धि। प्रतिनिधिसभाया ह्यस्तनोपवेशं सम्बोधयन् अध्यक्ष प्रचण्डः गणतन्त्रस्य विकल्पः राजतन्त्रं भवितुं न शक्नोतीति चर्चयन् लोकतन्त्रे एव स्वस्थानं निर्मातुं राजतन्त्रवादिनः अन्वरुणत। प्रमुख प्रतिपक्षदलस्य नेत्रा संसदि भाषणस्य समये प्रधानमन्त्रिणः अनुपस्थितेः विषये आपत्तिं प्रकटयन् अध्यक्ष प्रचण्ड संसद सञ्चालनाय प्रतिपक्षिभ्यः प्रदत्तस्य स्थानस्य विषये गभीरताम् अवलम्बितुं सत्तारूढ दलानि अन्वरुणत। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा दलस्य प्रशिक्षक प्रशिक्षण कार्यक्रमेण दल संगठनं सुदृढं विधातुं सहयोगो मेलिष्यतीति विश्वासं व्यनक्ति। नेपाली कांग्रेसले केन्द्रीय नीति अनुसन्धान प्रशिक्षण प्रतिष्ठानेन ह्य धनगढ़ी स्थाने आयोजिते सभापति कार्यक्रमे सभापति देउवा ग्राम वसति प्राप्य जनताया सुख दुःखयो सहयोगं कृत्वा च संगठनं सशक्तं विधातुमपि प्रशिक्षणस्य भूमिका महत्वपूर्णा शीर्ष्यतीति विश्वसितवान्। कार्यक्रमे दलस्य उपसभापति केन्द्रीय नित्यनुसन्धान प्रशिक्षण प्रतिष्ठानस्य प्रमुख पूर्णबहादुर खड्का प्रशिक्षक प्रशिक्षणस्य पश्चात् दलस्य नीति सिद्धान्ताभ्याम् सहैव संघीयता प्रवृत्तिनि कार्याणि प्रभावकारिणि विधातुं सहयोग प्राप्स्यतीति विश्वासम् अकरोत्। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति न्याये नागरिकाणां समानाम् उपलब्धिं सुनिश्चित्य निष्पक्षं सहजतया सुलभतया च न्यायं प्रदाय न्यायपालिकां प्रति जनानाम् आस्थाया अभिवृद्धि सर्वोच्च न्यायालयस्य मुख्यं लक्ष्यं भवेत्। सर्वोच्च न्यायालयस्य न्यायपरिषद न्यायसेवायोगस्य च वार्षिकं प्रतिवेदनं गृह्णन् राष्ट्रपति पौडेलः नेपालस्य संविधानेन आत्मसात् कृतायाः मान्यतायाः अधीने स्थित्वा सांविधानिकस्य विधिगतस्य च दायित्वस्य पूरणाय विहितानां कार्याणां समावेशनेन प्रतिवेदनेषु उत्थापितानां विषयाणां सम्बोधनं भविष्यतीति विश्वासं व्यक्तवान्। राष्ट्रपति पौडेलः निष्पक्षं प्रभावपूर्णाय न्याय सम्पादनाय आगामिषु दिनेषु इतोऽपि सशक्त भूमिकां निर्वेढुम् अन्वरुणात। एकादशे नेपाल भूगर्भिक सम्मेलने पञ्चसप्ततिः कार्यपत्राणि प्रस्तुत्य विमृष्टानि सन्ति। चतुर्दश सत्रेषु प्रस्तुतेषु पञ्चसप्तत्यां कार्यपत्रेषु षष्ठी नेपाली भूगर्भ विधान पञ्चदश वैदेशिक भूगर्भ विधान च कार्यपत्राणि आसनीति नेपाल भूगर्भिक समाजेन ज्ञापितं वर्तते। सम्मेलनं दिनद्वयं यावत् सञ्चालितम् आसीत्। सम्मेलने नेपाल भारत चीन भूटान अमेरिका क्यानाडा जर्मनी बंगलादेशादीनां षोडश देशानां भूगर्भ विधान सहभागिता आसीत्। वैदेशिक वृत्त्युपार्जनाय प्रेषणस्य प्रलोभनं प्रदर्श्य वञ्चनस्य आरोपे प्रहरिणा षड् जनाः निगृहीताः वर्तन्ते। निगृहीतेषु गोर्खा जनपदस्य आरूघाट ग्रामपालिकाया चतुर्थवडा क्षेत्रस्य चतुर्विंशति वर्षीया सरू परियार, कञ्चनपुर जनपदस्य बेलोरी नगरपालिकाया तृतीयवडा क्षेत्रस्य द्वात्रिंशद् वर्षीय जेम्स राणा, काष्ठमण्डपस्य कीर्तिपुर नगरपालिकाया षष्ठवडा क्षेत्रस्य चतुस्त्रिंशद् वर्षीय रेखा गुलाधर, धादिङ जनपदस्य नीलकण्ठ नगरपालिकाया नवम वडा क्षेत्रस्य सप्तविंशति वर्षीय रवि खनाल, ताप्लेजुङ जनपदस्य सिरिज ग्रामपालिकाया प्रथम वडा क्षेत्रस्य त्रयस्त्रिंशत् वर्षीय दिपेश सुब्बा, ललितपुरस्य इवारम च वर्तन्ते इति प्रहरिणा ज्ञापितम् अस्ति।